ॐ स्वरूपाय नमः। ॐ श्री सद्गुरवे नमः। ॐ नमो जी आद्या वेद प्रतिपाद्या जय जय स्वसंवेद्या आत्मरूपा देवा तुचि गणेशु सकलमति प्रकाशु मणे निवृत्तिदासु अवधारि जोजि ओंकारं बिंदु संयुक्तं नित्यं ध्यायन्ति योगिनः कामदं मोक्षदं चैव ओंकाराय नमो नमः। गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्री गुरवे नमः। माला कमंडल रदा कर पद्म युग्मे मध्यस्थ पाणियुगले डमरू त्रिशूले यस्यस्तौर्ध्वकरयोः शुभशङ्खचक्रे वन्दे तमत्रिवरदं भुजषट्कयुक्तम्। ब्रह्मरूपस्त्वं ज्योतिषां प्रव्रव्ययः आरोग्यं देहि पुत्रांश्च अतः शान्तिं प्रयच्छ मे। ॐ चत्वारि शृङ्गात्रयो अस्य पादा द्वे शीर्षे सप्तास्तासो अस्य त्रिधा बद्धो ऋषभोरोरवीति महो देवो मर्त्यान् आविवेश सप्तहस्तश्चतुश्रृङ्ग सप्तजिह्वो द्विशीर्षकः त्रिपात्प्रसन्नवदन सुखासीनश्चुचस्मितः स्वाहान्तु दक्षिणे पार्श्वे देवी वामे स्वदान्तथा बिभ्रदक्षिणहस्तैस्तु शक्तिमन्नं सृचं सुवः तोमरं व्यजनं वामैर्कृतपात्रं च धारयन् मेषारूढो जटाबद्धो गौरवर्णो महौजसः धूम्रध्वजो लोहिताक्ष सप्तार्चः सर्वकामदः आत्माभिमुखमासीन एवं रूपो हुताशनः। स्वस्ति प्रजाभ्य परिपालयन्तां ज्ञायेन मार्गेण महीं महेशाः गोब्राह्मणेभ्य शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु। काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः अपुत्राः पुत्रिणः सन्तु पौत्रिणः अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्। सर्वेत्र सुखिनः सन्तु, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखमाप्नुयात्। ॐ शान्ति शान्ति शान्तिः।
Oh.
ओम।